इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्तसेमवालः। आदौ मुख्यवार्ताः। नेपालस्य प्रधानमन्त्री केपी शर्मा ओली इत्येषः सामाजिक सञ्जाल प्रतिषेध प्रकरणे विरोध प्रदर्शनानन्तरं स्वपदात् त्यागपत्रं प्रायच्छत्। भारत सर्वकारः नेपाले सामान्य स्थितिं यावत् भारतीय नागरिकान् नेपालस्य यात्रां न कर्तुं सञ्चेतनां प्रायच्छत्। प्रधानमन्त्रिणा पंजाब हिमाचल प्रदेशयोः जलाप्लावस्य समीक्षा कृता। षोडश शत कोटि रूप्यकाणां साहाय्य राशि च उद्घोषिता। अपि च उपराष्ट्रपति निर्वाचनाय मतदान प्रक्रिया सम्पन्ना जाता। सम्प्रति मतानां गणना प्रवर्तते। नेपालस्य प्रधानमन्त्री केपी शर्मा ओली इत्येषः स्वपदात् त्यागपत्रं प्रायच्छत्। यदा शतशः प्रदर्शनकारिणः तस्य कार्यालयं प्रविश्य सर्वकारं विरुध्य उद्घोषणं कृतवन्तः तदा ओलीवर्यस्य त्यागपत्रं समागतम्। सामाजिक सञ्जाल माध्यमेषु सर्वकारस्य प्रतिबन्धं विरुध्य विरोध प्रदर्शनानां समये जातानां मृत्यूनाम् उत्तरदायित्वं सुनिश्चितं कुर्वन्तः विरोधिनः बालकोट क्षेत्रे ओलीवर्यस्य व्यक्तिगत निवासं भस्मीभूतं कृतवन्तः। युवान्दोलनकारिणः काठमाण्डु उपत्यकायां अन्येषु मण्डलेषु च राजनैतिक नेतृणां मन्त्रिणां निवासस्थानानि लक्ष्यीकृत्य शिलाप्रहारं कृत्वा सम्पत्तिम् अज्वालयन्। ललितपुरे संचार सूचना तंत्रज्ञान मन्त्रिणः पृथ्वी सुब्बा गुरुंग इत्यस्य गृहम् अपि प्रदर्शनकारिणः भस्मीभूतं कृतवन्तः। उपप्रधानमन्त्रिणः वित्तमन्त्रिणः च विष्णु पौडेल वर्यस्य भाई सेपति इत्यत्र अपि प्रदर्शनकारिणः शिलाप्रहारं कृतवन्तः। पूर्वगृहमन्त्रिणः रमेश लेखकः इत्यस्य गृहे अपि आक्रमणं सञ्जातम्। यः त्यागपत्रं दत्तवान्। प्रदर्शनकारिणः पूर्व प्रधानमन्त्रिणः नेपाली कांग्रेस अध्यक्षस्य च शेरबहादुर देउवा इत्यस्य बुधनीलकण्ठ गृहं प्रति अगच्छन्, परञ्च तेषां प्रवेशं तत्र निषिद्धम्। सीपीएन इत्यस्य अध्यक्षस्य पूर्व प्रधानमन्त्रिणः विपक्षस्य मुख्यनेतुः च पुष्पकमलदहाल इत्यस्य खुमालतार निवासे प्रदर्शनकारिभिः शिलाप्रहारः कृतः। काठमाण्डु ललितपुर भक्तपुर जनपदानां विभिन्नेषु क्षेत्रेषु अधिकारिणः कर्फ्यू इति निषेधाज्ञाम् अपि प्रख्यापितवन्तः। सर्वकार विरुद्ध प्रदर्शनानां मध्ये काठमाण्डु नगरस्य विमानस्थात्रं पिनद्धम्। एयर इंडिया इंडिगो चेत्यादिभिः सह अनेकाः विमानयात्रा सेवा प्रदात्री संस्थानैः दिल्ली काठमाण्डु नगरयोः मध्ये स्वकीयाः विमानयात्रा सेवाः निषिद्धाः। एयर इंडिया इत्यनेन एकस्मिन् वक्तव्ये प्रोक्तं यत् वर्तमान परिस्थितिम् अवलोक्य दिल्ली काठमाण्डू नगरयोः मध्ये प्रवर्तमानाः विमानयात्रासेवाः अद्य यावत् निषिद्धाः। इंडिगो इत्यनेन अपि समाना एव घोषणा कृता अस्ति। काठमाण्डुं प्रति गम्यमानानि विमानानि साम्प्रतं स्थगितानि सन्ति। संस्थानेन प्रभाविताः यात्रिणः परामृष्टाः यत् ते यात्रां पुनर्निर्धारितं कर्तुं आधिकारिक वेबफलके रिफंड इत्यस्य आवेदनं कुर्युः। प्रधानमन्त्रिणा नरेन्द्रमोदिना हिमाचल प्रदेशस्य जलाप्लाव प्रभावित क्षेत्राणां समीक्षा कृता। प्राकृतिक आपत प्रभावित जनैः सह स्थातुं केन्द्रस्य प्रतिबद्धता पुष्टीकृता। हिमाचल प्रदेशे स्वकीयायाः यात्रायाः आरम्भं कुर्वन् प्रधानमन्त्री भीषण वृष्टिपातेन भूस्खलनेन च जातायाः हानेः आकलनं कृतवान्। स हिमाचल प्रदेशस्य शीर्षाधिकारिभिः सह समीक्षोपवेशनं च कृत्वा प्रवर्तमानानां सहायोद्धार कार्याणां समीक्षाम् अकरोत्। सहैव प्रधानमन्त्री जलप्लावेन पीडितैः जनैः एनडीआरएफ एसडीआरएफ इत्यनयोः सहायोद्धार कार्य कुर्वद्भिः च सह संवादम् अकरोत्। अनन्तरं सः पंजाबे जलाप्लव प्रभावित क्षेत्राणां वायु सर्वेक्षण करिष्यति। प्रधानमन्त्री मोदीवर्यः जलाप्लावस्य स्थितिं विज्ञातुं पंजाबस्य पठानकोट नगरं सम्प्राप्तवान्। पंजाबस्य शीर्षाधिकारिभिः सह समीक्षोपवेशनं च कृतवान्। प्रधानमन्त्रिणा पंजाबस्य जलाप्लावित पीडितेभ्यः सहायतायै षोडश शतकोटि रूप्यकाणां सहाय्य राशि समुद्घोषिता। उपराष्ट्रपति निर्वाचनाय मतदान प्रक्रिया अधुना एव सम्पन्ना सञ्जाता। मतदानं प्रातः दशवादनतः समारभ्य सायं पञ्चवादनं यावत् प्रवर्तितम्। मतानां गणना अधुना प्रवर्तते। उपराष्ट्रपति निर्वाचनाय निर्वाचन द्वंद्व एनडीए दलस्य प्रत्याशिन महाराष्ट्रस्य राज्यपाल सीपी राधाकृष्णन इत्यस्य इंडिया दलस्य प्रत्याशिन उच्चतम न्यायालयस्य पूर्व न्यायाधीश बी सुदर्शन रेड्डी इत्यस्य च मध्ये अस्ति। संसदः द्वयोः सदनयोः सदस्यैः भारतस्य अग्रिमाय उपराष्ट्रपति निर्वाचनाय मतदानं कृतम्। प्रधानमन्त्री नरेन्द्रमोदीवर्यः मतदातृषु प्रथमः एव सदस्यः आसीत्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। श्वः रशिया देशे आरभ्यमानस्य बहुपक्षीय संयुक्त सैन्य अभ्यासे ZAPAD 25 इत्यस्मिन् भागं ग्रहीतुं भारतीय सशस्त्र बलस्य एकं दलम् अद्य रूसं प्रति प्रस्थितम्। सप्तदिवसीयस्य अस्य अभ्यासस्य उद्देश्यं सैन्य सहयोगं वर्धयितुं अंतर सक्रियतां वर्धयितुं सहभागी सेनाभ्यः पारंपरिक युद्धक्षेत्रे तथा आतंक प्रतिरोधक क्षेत्रेषु तंत्राणां तंत्र प्रक्रियानां च आदान प्रदानाय मंचं प्रदातुमस्ति। एकस्मिन् वक्तव्ये रक्षा मंत्रालयेन सूचितं यत् भारतीय सेनायाः दलस्य नेतृत्वं कुमाऊ रेजिमेंट इत्यस्य सैन्य बलस्य अन्य सशस्त्र सेवानां च सैनिकाः करिष्यन्ति। इसरो इत्यस्य अध्यक्ष वी नारायण इत्येषः प्रोक्तवान् यत् सिन्दूराभियानस्य अवधौ सर्वैरपि भारतीय उपग्रहैः 24 होरासु कार्यं कृतम्, आवश्यकतायाः च यथासम्भवं पूरिताः। नवदिल्ल्याम् एकं कार्यक्रमं सम्बोधयन् श्रीनारायणन् वर्यः प्रकाशितवान् यत् कथम् इसरो इत्यनेन भारतस्य तान्त्रिकी पक्षं सुदृढीकृत्य स्थानीयकरणं प्रौद्योगिक्या हस्तान्तरणं च वर्धते, अपि च देशं वैश्विक अन्तरिक्ष नेतृरूपेण स्थापितं कर्तुम् अन्तरिक्षोद्यमितां च प्रचाल्यते।
In the last talk, you would have heard General talking about this little bit and Sindur operation, our satellites, I cannot talk too much, but I want to tell all satellites who are working 24/7, perfectly it was working and enabling the requirement.
कार्यक्रमं संबोधयन् सेनाप्रमुखः जनरल उपेन्द्र द्विवेदीवर्यः प्रकाशितवान् यत् कथं भारतस्य सशस्त्रबलानि सुरक्षां राष्ट्रियात्मनिर्भरतां च वर्धयन्ति। स्वदेशस्य रक्षोत्पादनं निर्यातः नवाचारः इत्येतेषां माध्यमेन विकासोन्मुखं भवन्ति। दिल्ल्याः मुख्यमंत्री रेखागुप्ता अद्य प्रोक्तवती यत् यमुना नद्याः जलस्तरस्य अपचित्यानन्तरं दिल्ली सर्वकारः जनानां स्वकीयेषु गृहेषु पुनर्वासं कारयितुं सर्वाः आवश्यकसुविधाः प्रदास्यति। नवदिल्ल्यां प्रसारमाध्यमैः सह वार्तां कुर्वती दिल्ल्याः मुख्यमंत्री प्रोक्तवती यत् ये कृषकाः हानिं सम्मुखीकृतवन्तः तेभ्यः साहाय्योद्धार राशिः प्रदास्यते। सा प्रोक्तवती यत् दिल्ली सर्वकारः जनानां सहायतायै सर्वाः आवश्यक्यः व्यवस्थाः सज्जाः च कर्तुं प्रतिबद्धः अस्ति। विदेशमंत्री डॉ एस जयशंकरः अद्य तृतीयस्य ग्लोबल साउथ यंग डिप्लोमेट्स फोरम इत्यस्य प्रतिभागिभिः सह संवादम् अकरोत्। एकस्मिन् संजालीय संदेशे डॉ जयशंकरेण तयोः भावनैक्ययोः विषये प्रतिपादितं याभ्यां वैश्विक दक्षिण लक्ष्याणि अग्रे वर्ध्यन्ते। विदेश प्रकरणस्य मंत्री डॉ एस जयशंकरः अद्य आमन्त्रिते एकस्मिन् सेवावसान समारोहे मैक्सिकन राजदूतेन फेडरिको सलास इत्यनेन सह मेलनं कृतवान्। डॉ जयशंकरेण एकस्मिन् संजालीय संदेशे प्रोक्तं यत् सः भारत मैक्सिको देशयो मध्ये संबंधान् सुदृढं कर्तुं श्री सालास वर्यस्य योगदानं प्रशंसितवान्। डॉ जयशंकरेण मैक्सिकन राजदूत वर्याय भविष्यस्य कुशल प्रयासेभ्यः शुभकामनाः अपि प्रदत्ताः। इज़राइल देशस्य सेनया गाजा नगरस्य सर्वान् निवासिनः यथाशीघ्रं नगरात् अन्यत्र गन्तुम् आदेशः प्रदत्तः अस्ति, यतो हि सेना अस्मिन् क्षेत्रे भीषण बलेन सह कार्यसम्पादनस्य योजनां रचयति। इज़राइल देशस्य रक्षाबलानां अरबी भाषा प्रवक्ता गाजा नगरस्य प्रतिवेशि क्षेत्रेषु अवस्थितान् नागरिकान् सुरक्षित क्षेत्राणि प्रति स्थानान्तरितं भवितुम् आग्रहम् अकरोत्। अनेकैः विश्व नेतृभिः अस्याः योजनायाः निन्दा कृता अस्ति। संयुक्तराष्ट्रेण अपि संचेतना प्रदत्ता अस्ति यत् अनया योजनया बृहद्रूपेण अधिकाधिकानां नागरिकाणां विस्थापनं मृत्युः च भविष्यति इति वार्ताः।